आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी त्रिनिदाद टोबैगो देशस्य द्विदिवसीय सफल यात्रां समाप्य पञ्चराष्ट्र यात्रायाः तृतीये चरणे अर्जेण्टीना देशस्य व्यूनस एरेस नगरं प्रति गतवान्। त्रिनिदाद टोबैगो देशस्य आधिकारिक यात्रायां द्वयोः देशयोः ऐतिहासिकः सांस्कृतिकः द्वैपाक्षिकः च सम्बन्धः उन्नतः अभवत्। गतरात्रौ प्रस्थानात् पूर्वं प्रधानमन्त्री श्रीमोदी त्रिनिदाद टोबैगो संसदि संयुक्त सम्मेलने ऐतिहासिक भाषणे अवोचत् यत् लोकतन्त्रं भारतस्य कृते केवलं राजनैतिक व्यवस्था न अपितु जीवनमार्गः इति।
In India, we admire their leadership, grit and determination. They are living symbols of the relationship between our countries, built on shared roots and shared dreams. Distinguished members, both our nations rose from the shadows of colonial rule to write our own stories with courage as our ink and democracy.
प्रधानमन्त्री श्री नरेन्द्र मोदी त्रिनिदाद टोबैगो देशे षड् वंश श्रेणिक भारतीय मूलस्य नागरिकाणां कृते OCI कार्ड इति भारतीय विदेशी नागरिक पत्रस्य घोषणाम् अकरोत्, येन ते भारते प्रतिबन्धं विना निवासं कार्यं च कर्तुं शक्नुवन्ति। ह्यः प्रातः त्रिनिदाद टोबैगो देशे एकं कार्यक्रमं सम्बोधयन् श्रीमोदी भारतीय समुदायं स्व पैतृक भूमौ भ्रमितुं भारतेन सह सम्बन्धं गभीरं कर्तुं च प्रोत्साहितवान्। पञ्चराष्ट्र यात्रायाः अग्रिमपदे प्रधानमन्त्री श्रीनरेन्द्रमोदी राष्ट्रपतेः जेवियर मिलेई इत्यस्य आमन्त्रणेन अर्जेण्टीना देशं प्रति गतवान्। इयं च सप्त पञ्चाशत् वर्षेषु भारतीय प्रधानमन्त्रित्वेन अर्जेण्टीना देशस्य प्रथमा द्विपाक्षिक यात्रा अस्ति। चर्चासु प्रचलित सहकार्यस्य समीक्षा च भविष्यति। द्वयोः राष्ट्रयोः सामरिक सहभागिता वर्धनस्य उपायाः च अन्वेषिताः भविष्यन्ति। आकाशवाण्या सह विशेष संवादे अर्जेण्टीना देशे भारतस्य राजदूतः अजनीश कुमारः प्रधानमन्त्रिणः भ्रमणकाले चर्चायाः संभाव्य क्षेत्राणां रूपरेखां प्रकाशितवान्। प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य 6-7 दिनांकयोः ब्राजिल देशस्य रियो डी जेनेरो क्षेत्रे ब्रिक्स शिखर सम्मेलने भागं गृहीष्यति। अवधेयास्पदं वर्तते यत् प्रायः 6 दशकेषु प्रथमवारं भारतीय प्रधानमन्त्रिणः ब्राजील देशस्य द्विपाक्षिक यात्रा भविष्यति। स्वस्य यात्रायाः समये श्रीमोदी ब्राजील देशस्य राष्ट्रपतिना लुइस इनासियो लुला दा सिल्वा इत्यनेन सह शिखर सम्मेलने अन्यैः वैश्विक नेतृभिः सह वार्तालापं विधास्यति। अद्य ओडिसा राज्यस्य पुरी नगरे बाहुडा यात्रायाः सज्जता पूर्णतया प्रचलति। भगवतः जगन्नाथस्य 3 भव्यरथाः, भगवतः अग्रजः बलभद्रः, तेषां भगिनी देवी सुभद्रा च गुण्डीचा देवालयस्य पुरतः स्थिताः सन्ति। ये जगन्नाथ देवालयं प्रति प्रत्यागमन यात्रायाः कृते सज्जाः सन्ति। अवधेयं यत् गुण्डीचा देवालयस्य गर्भगृहात् बहिः भगवतः यात्रा पहण्ड इति विस्तृत अनुष्ठानेन आरभ्यते, या मध्याह्ने प्रायः आरभ्यते। यदा विशेष संस्काराः सम्पन्नाः भवन्ति तदा गुण्डीचा देवालयात् देवानां परिवहनार्थम् औपचारिक यात्रा आरभ्यते। रथयात्रा उत्सवस्य भागरूपेण श्वः देवः सुनाबेशा अर्थात् सुवर्णवस्त्रेण अलंकृताः भविष्यन्ति। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकी इति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः श्वः मध्याह्ने 12:30 भविष्यति। भवन्तः यथाकालं श्रोतुं प्रभवन्ति। इति वार्ताः।